ओम नमो भगवते वासुदेवाय। अथैकादशोऽध्यायः। श्रीशुक उवाच। अथो सुरा प्रत्युपलब्धचेतसः परस्य पुंसः परयानुकम्पया जघ्नुर्भृशं शक्रसमीरणादयस्तान् स्तान् रणे यैरभिसंहताः पुरा। वैरोचनाय संरब्धो भगवान् पाकशासनः उदयच्छद्यदा वज्रं प्रदाहाहेति चुक्रुषुः। वज्रपाणिस्तमाहेदं तिरस्कृत्य पुरस्थितम् मनस्विनं सुसम्पन्नं विचरन्तं महामृधे। नटवन्मूढमायाभिर्मायेषान्नो जिगीषसि जित्वा बालान् निबद्धाक्षान् नटो हरति तद्धनम्। आरुरुक्षन्ति मायाभिरुत्सिसृप्सन्ति ये दिवम्। तान् दस्यून्विधनोम्यज्ञान् पूर्वस्माच्च पदादधः। सोऽहं दुर्मायिनस्तेऽद्य वज्रेण शतपर्वणा शिरो हरिष्ये मन्दात्मन् घटस्वज्ञातिभिः सह। बलिरुवाच। सङ्ग्रामे वर्तमानानां कालचोदितकर्मणां कीर्तिर्जयो जयो मृत्युः सर्वेषां स्युरनुक्रमात्। तदिदं कालरसनं जनाः पश्यन्ति सूरयः न हरिष्यन्ति न शोचन्ति तत्र यूयमपण्डिताः। न वयं मन्यमानानामात्मानं तत्र साधनं गिरो वः साधु शोच्यानां गृह्णीमो मर्मताडनाः। श्रीशुक उवाच। इत्याक्षिप्य विभुं वीरो नाराचैर्वीरमर्दनः आकर्णपूर्णैरहनदाक्षेपैराहतं पुनः। एवं निराकृतो देवो वैरिणा तथ्यवादिना नामृश्य तदधिक्षेपं तोत्राहत इव द्विपः। प्राहरत्कुरिशं तस्मा अमोघं परमर्दनः। सयानोऽन्यपतद्भूमौ छिन्नपक्ष इवाचलः। सखायं पतितं दृष्ट्वा जम्भो बलिसखः सुहृत् अभ्ययात् सहृदं सख्युर्हतस्यापि समाचरन्। ससिंहवाः आसाद्य गदामुद्यम्य रंहसा जत्रावतादयच्छक्रं गजं च सुमहाबलः। गदाप्रहारव्यसितो भृशं विह्वलितो गजः जानुभ्यां धरणीं स्पृष्ट्वा कस्मलं परमं ययौ। ततो रथो मातलिना हरिभिर्दशशतैर्वृतः आनीतो द्विपमुच्छ्रिज्य रथमारुरुहे विभुः। तस्य तत्पूजयन् कर्म यन्तुर्दानवसत्तमः शूलेन ज्वलतातं तु स्मयमानो हनन्मृधे। सेहे रुजं सुदुर्मर्षां सत्त्वमालम्ब्य मातलिः इन्द्रो जम्भस्य संक्रुद्धो वज्रेणापाहरच्छिरः। जम्भं श्रुत्वा हतं तस्य ज्ञातयो नारदादृशेः नमुचिश्च बलपाकस्तत्रापेतुस्त्वरान्विताः। वचोऽपि परुषैरिन्द्रमर्दयन्तोऽस्य मर्मसु शरैरवाकिरन्मेघाधाराभिरिव पर्वतं हरीन् दशशतान्याजौ हर्यश्वस्य वलः शरैः। तावद्भिरर्दयामास युगपल्लघुहस्तवान् शताभ्यां मातलिं पाको रथं सावयवं पृथक् सकृत्सन्धानमोक्षेण तदद्भुतमभूद्रणे। नमुचिः पञ्चदशभिः स्वर्णपुङ्खैर्महेषुभिः आहत्य विनदत्सङ्ख्ये सतोयैवतो यदः। सर्वतः शरकूटेन शक्रं सरथसारथिं छादयामासुरसुराः प्राविट्सूर्यमिवाम्बुदाः। अलक्षयन्तस्तमतीव विह्वला विचुक्रुषुर्देवगणाः सहानुगाः। अनायका शत्रुबलेन निर्जिता वणिक्पथा भिन्न नवो यथार्णवे। ततस्तु राशादिषु बद्धपञ्जरात् विनिर्गत शाश्वरथध्वजाग्रणीः बभौ दिशाखं पृथिवीं च रोचयन् स्वतेजसा सूर्य इव क्षपात्यये। निरीक्ष्य प्रीतनां देवः परैरभ्यर्दितां रणे उदयच्छद्रिपुं हन्तुं वज्रं वज्रधरोरुषा। ततेनैवाष्टधारेण शिरसि बलपाकयोः ज्ञातीनां पश्यतां राजन् जहारजनयन् भयम्। नमुचिस्तद्वधं दृष्ट्वा शोकामर्षरुषान्वितः जिगांसुरिन्द्रं द्रिपते चकार परमोद्यमम्। अश्मसारमयं शूलं घण्टावध्येमभूषणम् प्रक्रय्याभ्यद्रवत्क्रुद्धो हतोऽसीति वितर्जयन् प्राहिणोद्देवराजाय निनदन् मृगरादिव। तदा पतद्गगनतले महाजवं विचिच्छिते हरिरिषुभिः सहस्रधा। समाहनन् नृपकुलिशेन कन्धरे रुषान्वितस्त्रिदशपतिः शिरोहरन् न तस्य हि त्वचमपि वज्रऊर्जितो बिभेदयः सुरपतिनौजसेदितः। तदद्भुतं परमतिवीर्यवृत्रभित् तिरस्कृतो नमुतिशिरोधर त्वचा तस्मादिन्द्रो बिभेच्छत्रोर्वज्रः प्रतिहतो यतः। किमिदं दैवयोगेन भूतं लोकविमोहनं येन मे पूर्वमद्रीणां पक्षच्छेदः प्रजात्यये। कृतो निविशतां भारैपतत्रै पततां भुवि तपःसारमयं त्वाष्ट्रं वृत्रो येन विपाटितः। अन्ये चापि बलोपेता सर्वास्त्रै रक्षत त्वचः। सोऽयं प्रतिहतो वज्रो मया मुक्तो सुरेऽल्पके नाहं तदा ददे दण्डं ब्रह्मतेजोऽप्यकारणम्। इति शक्रम् विषीदन्तमाहवाग शरीरिणि नायम् शुष्कैरथो नार्द्रैर्वधमर्हति दानवः मयास्मै यद्वरो दत्तो मृत्युर्नैवार्द्रशुष्कयोः अतोऽन्यश्चिन्तनीयस्ते उपायो मघवन् रिपोः ताम् दैवीम् गिरमाकर्ण्य मघवान् सुसमाहितः ध्यायन् फेनमता पश्यत् उपायमुभयात्मकम् न शुष्केण न चार्द्रेण जहारनमुचे शिरः तम् तुष्टवुर्मुनिगणा माल्यैश्चावा किरन् विभुम् गन्धर्वमुख्यौ जगतुर्विश्वावसु परावसु देवदुन्दुभयो ने दुर्नर्तक्यो न ऋतुर्मुदा अन्येऽप्येवम् प्रतिद्वन्द्वान् वायवग्निवरुणादयः सूदयामासुरस्रौघैर्मृगान् केसरिणो यथा ब्रह्मणा प्रेषितो देवान् देवर्षिर्नारदो नृप वारयामास विभुतान् दृष्ट्वा दानवसंशयम् नारद उवाच भवद्भिरमृतम् प्राप्तम् नारायणभुजाश्रयैः श्रिया समेचिता सर्व उपारमत विग्रहात् श्रीशुक उवाच संयम्यमन्युसंरम्भम् मानयन्तो मुनेर्वचः उपगीयमानानुचरैर्ययुः सर्वे त्रिविष्टपम् ये वशिष्टारणे तस्मिन्नारदानुमतेन ते बलिम् विपन्नमादाय अस्त्रम् गिरिमुपागमन् तत्राविनष्टावयवान् विद्यमानशिरोधरान् उशना जीवयामास सञ्जीविन्या स्वविद्यया बलिश्चोशनसा स्पृष्ट प्रत्यापन्नेन्द्रियस्मृतिः पराजितोऽपि नाखिद्यल्लोकतत्त्वविचक्षणः ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायामष्टमस्कन्धे देवासुरसङ्ग्रामे एकादशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधि माम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।